इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः झाः। आदौ मुख्य वार्ताः। गृहमन्त्री अमितशाहः मादकद्रव्यानां विरुद्धं संयुक्तसंघर्षस्य आह्वानं कृतवान्। तेन प्रतिपादितं यत् मादकद्रव्यानां विभीषिका राष्ट्रियसुरक्षायाः यूनां भविष्यस्य कृते च संकटं जनयति। अयोध्यायाः राममन्दिरदानराशिस्तेयप्रकरणे अष्टौ जनाः निगडिताः। पैक्सिलिका सन्धौ कृत्रिमबुद्धिमत्ता आपूर्तिश्रृङ्खलायै भारतेन सह चतुस्त्रिंशत् देशानां हस्ताक्षरं जातम्। मुहर्रम पर्वणि प्रधानमन्त्रिणा हजरत इमाम हुसैनस्य त्यागाः संस्मृताः। अपि च क्रीडावार्तासु, यूएस ओपन बैडमिंटन प्रतियोगितायां भारतस्य युवा क्रीडकः रौनक चौहानः चीनी ताइपे क्रीडकं चौ तिएनचेन इत्यमुं पराजित्य प्रागुपान्त्य चक्रं प्राविशत्। अथ वार्ताः विशदीकृत्य। गृहमन्त्रिणा अमितशाहेन अद्य मादकद्रव्यानां विरुद्धं संयुक्तसंघर्षस्य आह्वानं विहितम्। मादकद्रव्यानां प्रकोपः राष्ट्रियसुरक्षायै, सामाजिकस्थिरतायै, आर्थिकहिताय, यूनां देशस्य च भविष्याय भयं जनयति। सः आध्यात्मिकनेतृभ्यः, युवभ्यः, मातृभ्यः अस्य संघर्षस्य कृते एकस्मिन् मञ्चे आगत्य कार्यं कर्तुं च आग्रहम् अकरोत्। श्रीशाहः नवदिल्ल्यां नार्को कोऑर्डिनेशन केन्द्रस्य दशमशीर्षस्तरीय सभाम् अभिसम्बोधयन् एतानि वक्तव्यानि प्रायच्छत्।
आज हमारा देश नार्कोटिक्स के खिलाफ लड़ाई के ऐसे नाजुक मोड़ पर खड़ा है। आने वाले 3 साल तय करने वाले हैं कि नशा हम पर विजय प्राप्त करेगा या हम नशे पर विजय। और मेरा आप सबसे विनम्र आग्रह कि देश के आने वाले 100 वर्ष के भविष्य के लिए ये लड़ाई हमने जीतनी चाहिए, दृढ़ता के साथ जीतनी चाहिए और हमारे संयुक्त प्रयास से जीतनी चाहिए।
श्री शाहः अवोचत् यत् चतुरुत्तरद्विसहस्रतः चतुर्दशाधिकद्विसहस्रपर्यन्तम् अधिकारिणः प्रायः 26,00,000 किलोग्राममितं संश्लेषितमादकद्रव्याणि गृहीतवन्तः। तस्य अपेक्षया 14,00,000 26,00,000 गृहीतानि संश्लेषितमादकद्रव्याणि 18,11,000,000 किलोग्राममितं यावत् वर्धितम्। सः अवोचत् यत् मादकद्रव्याणां व्यापारस्य विरुद्धं सर्वकारस्य अभियानम् अविरतं प्रगतिं कुर्वदस्ति इति अङ्कैः ज्ञायते। मादकद्रव्याणां निवारणस्य प्रयत्नानां विषये श्रीशाहः अवोचत् यत् नार्कोटिक्स कंट्रोल ब्यूरो इत्यनेन मादकद्रव्याणाम् अपराधसम्बद्धानां सूचनानां समयोचित आदान प्रदानार्थम् अनेकानि ऑनलाइन पटलानि विकसितानि सन्ति।
पहला स्तंभ है एनफोर्समेंट, इंटेलिजेंस और ऑपरेशंस। इसका उद्देश्य पूरे नेटवर्क पर लक्षित इंटेलिजेंस लीड कार्रवाई करें और उनके नेटवर्क को नष्ट कर दें। दूसरा है प्रीकर्सर्स एवं सिंथेटिक ड्रग कंट्रोल। उत्पादन स्तर पर ही हमने नशे को रोकने की रणनीति अपनानी पड़ेगी और कैपेसिटी बिल्डिंग, कोऑर्डिनेशन और मॉनिटरिंग जो तंत्र को सक्षम बनाने के लिए और आधुनिक बनाने के लिए ये चौथे स्तंभ की रचना की गई है।
प्रधानमंत्री नरेंद्र मोदी अद्य अवोचत् यत् नशा मुक्त भारत अभियानम् जनसहभागित्वेन चालितं जनान्दोलनं जातम्। मादकद्रव्य मुक्त भारत निर्माणस्य महत्व विषये सामाजिक न्याय सशक्तिकरण राज्यमन्त्रिणः बी.एल्.वर्मणः लेखं विनिमयीकुर्वन् श्रीमोदी एतत् अवोचत्। उत्तरप्रदेश आरक्षकेण श्रीराम जन्मभूमि तीर्थक्षेत्र न्यासस्य दानराशिस्तेय प्रकरणे FIR इति प्रथम सूचना प्रतिवेदनाधारेण 8 जनाः निगडिताः। इदं तावत् प्राथमिकं प्रतिवेदनं मुख्यमन्त्रिणः योगी आदित्यनाथस्य निर्देशने विशेष निरीक्षण दलस्य अनुशंसनानन्तरं पञ्जीकृतमासीत्। इदं प्रकरणं श्रीराम जन्मभूमि तीर्थक्षेत्र न्यासेन प्राप्तानाम् उपहाराणां दानानां च स्थेयसम्बन्धिनाम् आरोपाणां प्रकाशनानन्तरं सम्मुखमागतम्। न्यासस्य अनुरोधे मुख्यमन्त्रिणा योगी आदित्यनाथेन एकस्य SIT दलस्य गठनस्य आदेशः प्रख्यापितः। न्यासीयसदस्यस्य कृष्णमोहनस्य लिखित अभियोगाधारेण श्रीरामजन्मभूमि आरक्षककेन्द्रे अयम् अभियोगः प्रविष्टः। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज़ आन् AIR चलदूरभाषीयतन्त्रांशे अपि समुपलब्धो भविष्यति। ह्यः वाशिङ्ग्टन् नगरे आयोजिते द्वितीये पैक्सिलिका शिखरसम्मेलने भारतेन सह अन्यैः चतुस्त्रिंशत् देशैः कृत्रिम बुद्धिमत्ता प्रविधीनां विकासाय विश्वसनीय दृढ आपूर्ति श्रृंखलायाः निर्माणार्थं अमेरिका नेतृत्वे एकस्मिन् महत्वपूर्ण प्रस्तावे हस्ताक्षरं विहितम्। आर्थिक विषयानाम् अमेरिका उपसचिवः जैक भेलबर्गः अवोचत् यत् AI अवसरे संयुक्त विवरणम् इत्यस्य अन्तर्गतं प्रतिभागी देशाः AI युगे विकासानुकूलं नवीनतानुकूलं च नियामक दृष्टिकोणं प्रति सहमतिं प्रदर्शितवन्तः। प्रतिनिधिभिः सह संवादे श्री हेल वर्गः प्रत्यपादयत् यत् अमेरिका भारतेन सह स्वस्य सहभागितां सुदृढीकर्तुं सोत्साहम् अग्रे आयाति। अस्मिन् शिखरसम्मेलने भारतस्य प्रतिनिधित्वं इलेक्ट्रॉनिक सूचना प्रौद्योगिकी मन्त्रालयस्य सचिवेन एस कृष्णन् महोदयेन अथ च भारतीय उद्योगक्षेत्रस्य प्रतिनिधिभिः कृतम्। अद्य देशस्य विभिन्न भागेषु आशुरा ए मुहर्रम पूर्णश्रद्धया गाम्भीर्येण च आचर्यते। अयं दिवसः पैगंबर मोहम्मदस्य दौहित्रस्य हजरत इमाम हुसैनस्य वीरगतिं संस्मरति। हजरत इमाम हुसैनः कर्बला युद्धे सत्यस्य सदाचारस्य न्यायस्य च रक्षणार्थं स्वप्राणाहुतिम् अयच्छत्। अस्मिन्नवसरे देशे स्थाने स्थाने ताजिया यात्राः निष्कास्यन्ते। प्रधानमन्त्री नरेन्द्र मोदी अद्य हजरत इमाम हुसैनस्य त्यागं संस्मृतवान्। सामाजिकान्तर्जालीय माध्यमेन प्रेषिते सन्देशे तेनोदीरितं यत् हजरत इमाम हुसैनस्य जीवनं सत्यस्य न्यायस्य च पथि दृढतया स्थातुम् अद्यापि जनान् प्रेरयति। अत्रावधेयं यत् राष्ट्रिय राजधान्यां देहल्यां जामा मस्जिद निजामुद्दीन ओखला महरौली इत्यादिषु विभिन्न प्रमुख स्थानेषु मोहर्रम यात्राः आयोज्यन्ते। भारतस्य विदेशमन्त्री डॉ एस जयशंकरः अस्य मासस्य 24-25 दिनांकयोः दक्षिण कोरिया देशस्य आधिकारिक यात्रां विहितवान्। स्वयात्रावधौ डॉ जयशंकरः द्विपक्षीय सम्बन्धान् सुदृढीकर्तुं दक्षिण कोरियायाः विदेशमन्त्रिणा चो ह्यून इत्यनेन सह विस्तृताम् उच्चस्तरीय चर्चां विहितवान्। उभाभ्यां नेतृभ्याम् अनेक प्रमुखाणां क्षेत्राणां सहयोगस्य समीक्षा कृता यत्र व्यापारनिवेशौ वित्तीय सहयोगः रक्षा सुरक्षा प्रविधयः नवाचाराः संस्कृतिः शिक्षा तथा च परस्पर जनसम्पर्कः सम्मिलिताः सन्ति। ताभ्यां क्षेत्रीय वैश्विक परिदृश्यानां विषये अपि विचाराणां विनिमयीकरणं कृतम् तथा च बहुपक्षीय मञ्चेषु सहकार्यं वर्धयितुम् उपायानां विषये मन्त्रणा कृता। विदेशमन्त्रालयानुसारं द्वाभ्यां मन्त्रिभ्यां भारत दक्षिण कोरिया सम्बन्धेषु नूतन गतिशीलतायाः स्वागतं कृतम्। सहैव भारत दक्षिण कोरिया विशेष रणनीतिक सन्धिम् इतोपि अग्रे नेतुम् अविरतं सम्पर्के स्थातुं सहमतिः प्रकटीकृता। भारतस्य रौनक चौहानेन अद्य फुटलन नगरे US ओपन बैडमिंटन प्रतियोगितायां चीनी ताइपे इत्यस्य पुरुष एकलस्य क्रीडकं चाउ टियेन चेन इत्येतम् 1:17:27:24 अंकैः पराभूय प्रागुपान्त्य चक्रीय द्वन्द्वे पदार्पणं कृतम्। इति वार्ताः।